क्वचित् लसति मेचकम् क्वचिन्मेचका मेचकम् क्वचित् पुनर्मेचकम् सहजमेव तत्त्वं मम तथापि न विमोहयत्य मलमेधसां तन्मनः परस्पर सुसंहत प्रकट शक्ति चक्रम स्फुरत।